अथ दैवासुरसंपदविभागयोगनामषोडशोऽध्याय श्रीभगवानुवाच अभयं सत्तसंशुद्धिर्ज्ञानयोगाव्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तपार्जवम् अहिंसा सत्यमक्रोधा।